एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति सुशासनस्य सामाजिक न्यायस्य समृद्धेश्च आकांक्षां पूरयितुं सर्वकारः क्रियाशीलो वर्तते। सीमा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालय ह्य प्रधानमन्त्री कार्यालयस्य अन्तर्गतानां निकायानां कार्यालयानां च उपवेशे प्रधानमन्त्री प्रचण्डः अवदत् वर्तमानावस्थायां राष्ट्रस्य आवश्यकतायाः सम्बोधनत्वेन सर्वैः क्षेत्रैः कार्यं सम्पादनीयम्। प्रधानमन्त्री प्रचण्डः अभाषत विगत समय सिंहप्रासादात् बहि निवासाद् वा शासन सञ्चालनस्य कार्यं विहितमिति हेतोः अतः परं विशेष परिस्थितिं विहाय सिंहप्रासादादेव सर्वाणि कार्याणि सम्पादयिष्यन्ते। प्रधानमन्त्री प्रचण्डः अवोचत कर्मचारी संयन्त्रे दण्ड पुरस्कारयोः व्यवस्था प्रभावकारी रूपेण क्रियान्वीयते। उपवेशे मुख्य सचिवः शंकरदास वैरागी प्रधानमन्त्रिणः सक्रियतातः आत्मभ्यम् कार्य सम्पादनाय ऊर्जः प्राप्तमिति अगदत्। उपवेशे प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य अन्तर्गतानां द्वादश निकायानां कार्यालयानां च प्रमुखैः स्वस्व निकायस्य कार्यालयस्य च कार्यादेशस्य नीतिगतायाः संरचनागतायाश्च स्थितेः प्राप्तोपलब्धीनां सीमायाः समस्यानां सर्वकारात् विहितायाः अपेक्षायाश्च विषयेषु सारसंक्षेपः प्रस्तुतः आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः गदति सर्वकारः पूर्ण संचार स्वतन्त्रतां प्रति प्रतिबद्धोऽस्ति। नेपाल टेलिभिजन संस्थानस्य अष्टात्रिंशं वार्षिकोत्सव समारोहम् ह्य सिंहप्रासादे सम्बोधयन् प्रधानमन्त्री प्रचण्डः अवोचत् अभिव्यक्ति स्वतन्त्रताम् सूचनायाः अधिकारम् पूर्ण संचार स्वतन्त्रताञ्च सुनिश्चेतुम् आवश्यक संरचनया पूर्वाधार निर्माणेन च सह विदेहे व्यावहारिक सुनिश्चिततायै च सर्वकारः दृढोऽस्ति। प्रधानमन्त्री प्रचण्डः अगदत् सर्वेषां वर्ग क्षेत्र जाति भाषा समुदायानाम् उपालम्भनत्वेन समावेशी लोकतान्त्रिक सूचना संचार नीतिः क्रियान्वेष्यते। प्रधानमन्त्री प्रचण्डः संचारकर्मिणां शिल्प दक्षताभिवृद्धये उच्चतम व्यावसायिकाभ्यासाय च जनसञ्चार प्रशिक्षण प्रतिष्ठानं स्थापयितुं सर्वकारः प्रतिबद्धोऽस्ति इति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्डः समाभयपूर्ण परिस्थितौ संगठितः स्वस्य नेतृत्वस्य वर्तमान सर्वकारः सामाजिक न्यायस्य सुशासनस्य समृद्धेश्च प्राथमिकतात्रयं निर्धार्य अग्रे वर्धितोऽस्ति इति अभासत। प्रधानमन्त्री प्रचण्डः नेपाल टेलिभिजन संस्थानम् नेपाल सर्वकारस्य नेपाली जनतायाश्च आधिकारिक सूचनायाः समाचाराणां च सम्प्रेषकः संचार माध्यमो वर्तते इत्यतः राज्यम् नागरिकाञ्च प्रति संस्थानेन अनेन उत्तरदायित्वेन अविचलित रूपेण च अग्रे वर्धनीयमिति धारणां व्यक्तवान्। समारोहे संचार सूचना प्रविधि मन्त्री रेखा शर्मा अगदत् राजनैतिक परिवर्तनम् संस्थागतम् विदातम् नेपाल टेलिभिजन संस्थानस्य महत्वपूर्ण भूमिका वर्तते। मन्त्री शर्मा नेपाल टेलिभिजन संस्थानेन बहुलताम् विविधताम् च सम्बोध्य नागरिकाणाम् दर्शकानाम् च अपेक्षाय अनुसारेण अतिरिक्तम् दायित्ववाहिना व्यावसायिकेन च भाव्यमिति बलम् प्रादात्। समारोहे नेपाल टेलिभिजन संस्थानस्य कार्यकारी अध्यक्ष समीर जंग शाह सूचना संचार क्षेत्रे सम्भूतम् परिवर्तनम् आत्मसात्कृत्य व्यावसायिक दक्षता शिल्पस्य च विकासाय बलम् प्रदत्तमस्ति इति अवोचत। नेकपा माओवादी केन्द्रेण राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विधस्य नागरिकता सम्बद्ध विधिगत प्रकरणे सर्वोच्च न्यायालयस्य निर्णयस्य पूर्णपाठस्य अप्राप्तिम् यावत् कोऽपि निर्णयो न विधीयते। यो दलस्य पदाधिकारिणाम् उपवेशस्य पश्चात् संचारकर्मिभ्यः प्रतिक्रियां ददत् प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड यथासम्भवम् गठबन्धनम् न त्रुटतु इत्यत्र आत्मनः सक्रियता स्थिति अवदत्। असौ गृहमन्त्रालयस्य विषये न्यायालयस्य पूर्णपाठम् प्रतीक्षितुम् परामर्श प्राप्तोऽस्तीति अब्रवीत्। दलस्य केन्द्रीय कार्यालये उपविष्टस्य उपवेशस्य अनन्तरम् उपाध्यक्षः कृष्णबहादुर मरा गृहमन्त्रालयस्य सन्दर्भे सर्वोच्च न्यायालयस्य निर्णयस्य पूर्णपाठस्य अप्राप्तिम् यावत् प्रधानमन्त्रिणा सहैव गृहमन्त्रालयम् स्थापयितुम् परामर्श प्राप्तोऽस्तीति अकथयत्। उपवेशे राष्ट्रपतये यथासम्भवम् राष्ट्रिय सहमतेर्धरणस्य विषये बलम् दत्तमिति च उपाध्यक्ष महरा अज्ञापयत्। नेकपा माओवादी केन्द्रेण दलस्य दक्षिणाम कार्य विभाजनस्य प्रदेश समितिनाम सबलीकरणस्य च विषयोऽपि विमृष्टौ स्तः। अद्य उपविश्यमाने स्थायी समितेः उपवेशे एतस्मिन् विषये अतिरिक्त विमर्शनम् निर्णयनम् च भवता इति उपाध्यक्ष मरा असूचयत्। नेकपा एकीकृत समाजवादी दलेन प्रधानमन्त्रिणे पुष्पकमला दाहाल प्रचण्डाय ह्यो ज्ञापन पत्रम् अर्पितमस्ति। दलाध्यक्षेण माधव कुमार नेपालेन सहित समूह प्रधानमन्त्रिणे प्रचण्डाय राष्ट्रस्य आर्थिक संकटस्य समाधानाय विंशति सूत्रीय परामर्शै सहित ज्ञापन पत्रमिदम् अर्पयत्। राष्ट्रे आर्थिक संकट वर्धित कोषागाराणाम् वृद्धि धनस्य असमानताया हेतु सर्वसाधारण जनेभ्य समस्या सृष्टा निर्यातस्य तुलनायां आयातस्य आधिक्यात् देशस्य आर्थिकावस्था संकटं च प्राप्तेति उल्लिख्य ज्ञापन पत्रमिदम् अर्पितमिति एकीकृत समाजवादी दलम् ज्ञापयति। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा भासते कांग्रेस दलात् राष्ट्रपतेः प्रत्याशी क भवतीति विषये विधिवत रूपेण विमर्शनानन्तरं सम्भावितस्य प्रत्याशिनः नाम निर्णयश्च सार्वजनिकरिष्यति। करिष्येते ह्य इलाम जनपदस्य फिक्कल स्थाने पत्रकारैषा भाषमाण महामन्त्री शर्मा संयुक्त रूपेण स्वत्वग्रहणत्वेन कांग्रेस दलेन प्रस्तावित जन एव नूतन राष्ट्रपति भविष्यतीति न्यश्चिनोत्। प्रवक्ता शर्मा नेपाली कांग्रेस दलम दीर्घकालिकेतिहास वाहकम दलम अस्तित्यत स्वल्प लघुतर समस्यात विचलितम न भवतीति धारणा व्यक्तवान्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल भासते राष्ट्रस्य विकासाय सहमति सहकार्यम एकता च अद्यतनी आवश्यकता वर्तते। तनौ जनपदीयेन नेपाली कांग्रेस दलेन ह्य तत्र आयोजितायां वर्तमानावस्थायां कांग्रेस दलस्य भूमिका इति विषयिण्याम् अन्तरक्रियायां वरिष्ठ नेता पौडेल सहमत्या सहकार्येण एकतया चैव देशस्य प्रगतिर्भवतीति धारणाम् अभिव्यनक। वरिष्ठ नेता पौडेल समूह निर्माणस्य कारणेन दलम दुर्बलम जातम् चर्चयन राजनीतिक दलानां च मध्ये दलबन्धनस्य कारणात् देशो दुर्बलायते इति टिप्पणीम् अकरोत्। सम्पत्ति शुद्धिकरणेन सम्बद्धानां कतिचित् अधिनियमानां संशोधनाय निर्मितं विधेयकं द्रुतगत्या अग्रे वर्धाप्यते। अर्थमन्त्रालये ह्य उपविष्टेन सम्पत्ति शुद्धिकरण सम्बद्धायाः राष्ट्रिय पुनरावलोकन परिषदः उपवेशेन सम्पत्तेः शुद्धिकरणेन निवारणेन व्यावसायिक वातावरण प्रवर्धनेन च सम्बद्धानां कतिचित् अधिनियमानां संशोधनाय निर्मितं विधेयकं द्रुतगत्या अग्रे वर्धयितुं निर्णीतमस्ति। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेल आगामी रविवासरम् यावत् विधेयकस्य प्रारूपम् मन्त्रिपरिषदि प्रेष्यते, मन्त्रिपरिषदा च द्रुतगत्या संघीय संसदि प्रेष्यते इति अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्री पदमगिरी अनुगमनम् प्रभावकारी विधातुम् औषध व्यवस्था विभागम् निर्दिशति। ह्यो विभागस्य अनुगमनस्य सार संक्षेप ग्रहणस्य च क्रमे मन्त्री गिरी सीमित जनशक्तौ स्रोतसि च सतोरपि औषधानुगमनम् केनापि प्रवञ्चनेन संकोचितम् न विधातुम् निरदिशत। मन्त्री गिरी आपणेषु गुणस्तरहीनानाम् औषधानाम् व्याप्तेः हेतोः नागरिकाणाम् स्वास्थ्यम् उपेक्षितुम् कस्मै अपि सौविध्यस्य अप्रदानत्वेन अनुगमनम् प्रभावकारी विधातुम् निर्दिष्टवान्। कार्यक्रमे स्वास्थ्य जनसंख्या राज्यमन्त्री डाक्टर तोषिमा कार्की अगदत् अनलाइन प्रविधेः क्रयणस्य औषधानाम् विज्ञापनस्य च नियमनम् विधातव्यम्। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोला प्रसाद अरियाल मन्त्रालय सञ्चालितम् सम्पर्क कक्षम् व्यवस्थातुम् ह्यस्तन दिवसात् श्रमाधान श्रम सहायता केन्द्रम् प्रारब्धम् अस्ति सूचयति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालय ह्य आयोजिते पत्रकार सम्मेलने श्रम मन्त्री अरियाल श्रमिकाणाम् जिज्ञासानाम् समस्यानाम् च एकद्वार प्रणाल्या समाधानस्य उद्देश्येन मन्त्रालय धान नामकम् सम्पर्क केन्द्रम् चतुर्विंशत्यामेव घण्टासु सेवा प्रवाहम् करोतीति अज्ञापयत् इति समाचाराः।